नमस्सर्वेभ्यः. अद्य तत्पुरुषसमासप्रकरणे दशमः पाठः. तत्पुरुषसमासे अन्तिमः कश्चन भागः अवशिष्टः अस्ति, पूर्वपदविशेषाः. अस्माभिः पूर्वं दृष्टं, समासः यदा क्रियते तदा कदाचित् उत्तरपदे विशेषः भवति, कदाचित् पूर्वपदे भवति. उत्तरपदविशेषः इत्युक्ते समासान्तप्रत्ययाः एव. समासान्तप्रत्ययानां कारणेन उत्तरपदे विशिष्टं रूपं भवति, यथा राजन् इति नकारान्तं, किन्तु टचि कृते राज इति अकारान्तं भवति. इत्येवम् उत्तरपदविशेषाः समासान्तप्रत्ययानां कारणेन भवन्ति. तथैव कदाचित् पूर्वपदे विशेषाः भवन्ति. तानि कार्याणि अलुगुत्तरपदे इति, उत्तरपदे परे एतानि कार्याणि भवन्ति इति उच्यन्ते. तत्पुरुषसमासे कानिचन पूर्वपदस्य विशिष्टानि कार्याणि अद्य पश्यामः. तथैव लिङ्गनिर्णयः, तत्पुरुषे समस्तपदस्य लिङ्गः, लिङ्गं कथं निर्णीयते इति किञ्चित् पश्यामः. येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं. नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्. ह्यः उपपरसमासः, तत्पुरुषे समासान्ताश्च पठिताः. तत्रोपपदं सप्तमीस्थं, सप्तम्यन्ते पदे कर्मणि इत्यादौ वाच्यत्वेन स्थितं यत् कुम्भादि तद्वाचकं पदम् उपपदसंज्ञं स्यात्. उपपदमतिङ् उपपदं सुबन्तं समर्थेन नित्यं समस्यते. अतिङन्तश्च अयं समासः, कुम्भं करोति इति कुम्भकारः. अतिङ्किं मा भवान् भूत्, माङि लुङ् इति सप्तमी निर्देशात् माङ् उपपदम्. तत्पुरुषस्य अङ्गुलेः सङ्ख्याव्ययादेः, सङ्ख्याव्ययादेः अङ्गुल्यन्तस्य समासान्तः अच् स्यात्. द्वे अङ्गुलीप्रमाणम् अस्य द्व्यङ्गुलम्. निर्गतम् अङ्गुलिभ्यः निरङ्गुलम्. अहस्सर्वैकदेशसङ्ख्यातपुण्याच्च रात्रेः, एभ्यः रात्रेः अच् स्यात्. चात् सङ्ख्या अव्ययादेः. अहर्ग्रहणं द्वन्द्वार्थम्. रात्रान्हाः पुंसि, एतदन्तौ द्वन्द्वतत्पुरुषौ पुंसि एव. अहश्च रात्रिश्च अहोरात्रः, सर्वरात्रः, सङ्ख्यातरात्रः. सङ्ख्यापूर्वं रात्रं क्लीबं, द्विरात्रं, त्रिरात्रं. राजाः सखिभ्यश्च च, एतदन्तात् तत्पुरुषात् टच् स्यात्. परमराजः. स्तनाभ्यासः आसीत्, कथञ्चित् केनापि कर्तुम् अशक्यम्, यतोहि मया अप्लोड् एव न कृतम्. अग्रे गच्छामः. आन्महतः समानाधिकरणजातीययोः. आत् महतः समानाधिकरणजातीययोः इति त्रीणि पदानि सन्ति. उत्तरपदे इति अधिक्रियते. महतः इति षष्ठी, महत् शब्दस्य आत् आकारः भवति. समानाधिकरणे उत्तरपदे अथवा जातीये उत्तरपदे इत्यर्थः. इदं विधिसूत्रं येन आकारः विधीयते. आत् इत्यत्र आकारः विधीयते. महतः आकारः अन्तादेशः स्यात् समानाधिकरणे उत्तरपदे जातीये च परे. यत्र उत्तरपदं समानाधिकरणं भवति तत्र, अथवा जातीयर् इति तद्धितप्रत्ययः अस्ति, तस्मिन् वा परे महत् इत्यत्र यः तकारः तस्य आकारः आदेशः भवति इति अनेन सूत्रेण उच्यते. महाराजः इति प्रसिद्धम् उदाहरणम्. तत्र किं भवति, महान् राजा इति कर्मधारयसमासः. महान् राजा इति विग्रहः. तत्र प्रक्रिया तु विशेषणं विशेष्येण बहुलम् इत्यनेन समासः भवति. महत् सु राजन् सु इति शास्त्रीयः विग्रहः. सुपोधातुप्रातिपदिकयोः इत्यनेन सुब्लुकि महत् राजन्. तत्र राजाः सखिभ्यः टच् इति टच् समासान्तः भवति. ह्यः दृष्टं राजन् अ. नस्तद्धिते इति टिलोपे राज अ. महत् राज इत्यस्ति. इदानीं राज इति समानाधिकरणं, महान् राजा इति समानाधिकरण्यमस्ति इत्यतः समानाधिकरणे उत्तरपदे महत् इत्यत्र तकारस्य आकारः भवति. मह आ राज. आन्महतः समानाधिकरणजातीययोः इत्यनेन आकारादेशः भवति. मह आ अकसवर्णे दीर्घः इत्यनेन सवर्णदीर्घे महाराज इति अकारान्तं प्रातिपदिकं. सुप्रत्ययः तस्य विसर्गः महाराजः इति रूपम्. एतत्तु समानाधिकरणस्य उदाहरणम्. महाजातीयः इत्यत्र प्रकारवचने जातीयर् इति तद्धितप्रत्ययः अस्ति. प्रकारः तत्सदृशः इत्यर्थे जातीयर् इति प्रत्ययः तद्धितप्रत्ययः क्रियते. महत् जातीय इति स्थिते आत्रे महाजातीय इति भवति. द्वितीयं द्व्यष्टनः संख्यायाम् अबहुव्रीह्यशीत्योः इति अग्रिमं सूत्रं. द्वि अष्टनः द्व्यष्टनः षष्ठी एकवचनं. संख्यायाम् इति सप्तमी. अबहुव्रीः अशीत्योः इत्यपि सप्तमी. उत्तरपदे इत्यधिकारः आत् इति अनुवर्तते. आन्महतः इत्यतः आत् इति अनुवर्तते. तर्हि अनेनापि सूत्रेण आकारादेशः विधीयते. कस्य आकारः भवति? द्व्यष्टनः द्विशब्दस्य एवम् अष्टन् शब्दस्य च आकारः भवति. कदा भवति? संख्यायाम् उत्तरपदे. उत्तरपदं संख्यावाचकं भवति चेत् आकारादेशः भवति. तत्र निषेधद्वयमस्ति. बहुव्रीः समासे न भवति, अशीतिशब्दे परे न भवति इति विशेषः. तदतिरिच्य सर्वत्रापि भवति. आत् स्यात् तावदेव दीयते सूत्रार्थे. द्विशब्दस्य अष्टन् शब्दस्य च संख्यावाचके उत्तरपदे परे आत् स्यात्, न तु बहुव्रीहौ अशीतिशब्दे वा इति पूर्णः सूत्रार्थः. द्वि अष्टन् एतयोः आकारः अन्तादेशः स्यात् संख्यावाचके उत्तरपदे परे. उदाहरणं पश्यामः. द्वौ च दश च. टु अण्ड् टेन् ट्वेल्व् इत्यस्ति द्वन्द्वसमासः. अत्र समासः नोच्यते विशिष्य. बहुव्रीहौ न भवति इत्युच्यते, अन्येषु भवति इत्यर्थः. समानाधिकरण्यम् अपि भवति. समानाधिकरणे इत्यपि अनुवर्तते, अतः समानाधिकरण्यम् अपेक्ष्यते. द्वौ च दश च द्वन्द्वसमासः. तत्र द्वि दश द्वि औ दश जस् इति स्थिते सुपोधातुप्रातिपदिकयोः इत्यनेन सुब्लुकि. द्वि दशन् इत्यस्ति. द्वि दशन् इति स्थिते द्वि इत्यत्र इकारस्य आकारः भवति. तदा द्वादश इति भवति. द्वादशन् इति नकारान्तः शब्दः. प्रथमाविभक्तौ एकवचने द्वादश, एकवचनं न बहुवचनं, नित्यं बहुवचनान्तः शब्दः. प्रथमाविभक्तौ द्वादश इति रूपम्. एवमेव द्वाविंशतिः. द्वौ च विंशतिः च द्वाविंशतिः. द्विविंशति इति स्थिते इकारस्य आकारादेशे द्वाविंशतिः. द्वात्रिंशत् सर्वत्रापि संख्यावाचके उत्तरपदे द्विशब्दस्य आकारादेशः भवति. एवमेव अष्टन् इत्यस्यापि अष्टादश, अष्टाविंशतिः, अष्टात्रिंशत्. अष्टाविंशतिः इत्यत्र अष्टाधिकाविंशतिः, अष्टाविंशतिः इति भवति मध्यमपदलोपी समासः. शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्य उपसंख्यानम् इति वार्तिकं पठितम्. अष्टाधिका इत्यत्र अधिक इत्यस्य लोपः भवति. अष्टाधिकाविंशतिः, अष्टाविंशतिः. एवम् अष्टादश, अष्टात्रिंशत् सर्वत्रापि भवति. त्रेः त्रयः पूर्वतनसूत्रं पूर्णतः अनुवर्तते. संख्यायाम् अबहुव्रीह्यशीत्योः उत्तरपदे त्रिशब्दस्य त्रयस् इति आदेशः भवति संख्यावाचके उत्तरपदे. द्विशब्दस्य, अष्टन् शब्दस्य च आत्वं भवति. त्रिशब्दस्य त्रयस् इति आदेशः भवति. आकारविधानं न, त्रयस् इति आदेशविधानम्. त्रिशब्दस्य त्रयस् आदेशः स्यात् संख्यावाचके उत्तरपदे परे इति सूत्रार्थः. तेन किं भवति? त्रयोदश, त्रयस् दश, ससजुषोरुः इत्यनेन ऋत्वं, त्रय ऋ दश, हशि च इत्यनेन रोः उत्वं भवति. त्रय उ दश, आद्गुणः इत्यनेन गुणे त्रयोदश. एवमेव त्रयोविंशतिः, त्रयस् त्रिंशत्, त्रयस् त्रिंशत्, ससजुषोरुः खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः, कर्कशव्यञ्जनमस्ति इत्यतः सत्वं भवति त्रयस् त्रिंशत्. एवं द्वि इत्यस्य द्वा भवति, त्रि इत्यस्य त्रयस् भवति, अष्ट अष्टन् इत्यस्य अष्टा इति भवति. एतावत् दृष्टं. तर्हि सर्वत्र भवति वा इति चेत्, अग्रे अपरं सूत्रमस्ति. इदं सूत्रं लघुसिद्धान्तकौमुद्यां नास्ति, किन्तु प्रकरणवशादुच्यते. विभाषा चत्वारिंशत् प्रभृतौ सर्वेषां, त्रिंशत् पर्यन्तमपि एतदादेशद्वयं नित्यम्. सो द्वादश, त्रयोदश, अष्टादश, द्वाविंशतिः, त्रयोविंशतिः, अष्टाविंशतिः, द्वात्रिंशत्, त्रयस्त्रिंशत्, अष्टात्रिंशत्, तत्र आदेशः नित्यः. किन्तु चत्वारिंशत् प्रभृतौ, उत्तरपदं चत्वारिंशत् अथवा तदधिकं भवति चेत् विभाषा विकल्पेन आदेशः भवति. अतः द्वाचत्वारिंशत्, द्विचत्वारिंशत् इति उभयं साधु. यद्यपि आधुनिकव्यवहारे केवलं द्वि इत्यस्य उपयोगः क्रियते अस्माभिः, किन्तु द्वाचत्वारिंशत् इत्यपि अस्ति. चत्वारिंशतः आरभ्य रूपद्वयं भवति, त्रयश्चत्वारिंशत्, त्रिचत्वारिंशत्, एवम् अष्टाचत्वारिंशत्, अष्टचत्वारिंशत्, रूपद्वयं भवति. पञ्चाशत्, षष्टिः, सप्ततिः, अशीतिः इत्यत्र न भवति. सूत्रे एव अबहुव्रीह्यशीत्योः इति उक्तत्वात् अशीतौ न भवति. द्व्यशीतिः, त्र्यशीतिः, अष्ट अशीतिः, अष्टाशीतिः इति केवलं सन्धिः भवति. अन्यत्र त्रिंशत् पर्यन्तं नित्यम् आदेशः, चत्वारिंशतः आरभ्य विकल्पेन आदेशः भवति. प्राक् शताद् इति वक्तव्यम् इत्यपि वार्तिकम्. एतद् आदेशद्वयमपि शतात् पूर्वमेव, शतपर्यन्तमेव आदेशः. दशतः त्रिंशत् पर्यन्तं नित्यमादेशः, चत्वारिंशतः नवतिपर्यन्तं विकल्पेन आदेशः, शतात् पूर्वं, शताद् अनन्तरम् आदेशः न भवति. द्विशतं, त्रिशतम्, अष्टशतम्, सर्वत्र द्वि, त्रि, अष्टन् इति प्रातिपदिकमेव भवति. शतात् पूर्वम् एते आदेशाः भवन्ति. द्व्यष्टनोः आत्वं, त्रेः त्रयः. स्पष्टम्? केपि प्रश्नाः सन्ति वा? हण्ड्रेड् एण्ड् थर्टि टु इत्यत्र कथं भवति? तत्र उत्तरपदं, तत्र हण्ड्रेड् एण्ड् थर्टि टु कथम् उच्यते? शताधिकद्वात्रिंशत् इत्युच्यते, अथवा द्वात्रिंशदुत्तरशतम् इत्युच्यते. तत्र समासे द्वि इत्यस्य अनन्तरं त्रिंशदेव अस्ति. तत्र उत्तरपदं किम् इत्येव, उत्तरपदं शतादधिकम् अस्ति चेत् न भवति, शतं सहस्रम् इत्यादि अस्ति चेत्. तत्र 132 इति यदा वयं वदामः तदा द्विशब्दस्य त्रिंशत् इत्यनेनैव समासः. द्वात्रिंशत्, द्वात्रिंशदधिकशतम् अथवा शतोत्तरं द्वात्रिंशत् इति. अतः तत्र भवत्येव, तत्र सङ्ख्या शतादधिका इति न, उत्तरपदं शतादधिकं, शतम् अथवा तदधिकम् अस्ति चेत् न भवति इत्येव. अतः 2018 इति उच्यते चेदपि द्विसहस्र, तत्र सहस्रेण द्वि इत्यस्य आत्वं न भवति. द्विसहस्रोत्तर अष्टादश, अष्ट इत्यस्य दश इत्यनेनैव समासः, अतः तत्र अष्टादश इति आत्वं भवति. अष्टादशोत्तरं द्विसहस्रमिति वा, उभयथापि. एतत्तु उत्तरपदविशेषाः. महच्छब्दस्य आत्वं दृष्टं, द्व्यष्टनोः आत्वं, त्रेः त्रयः, पूर्वपदविशेषाः. उत्तरपदविशेषाः समासान्ताः ह्यः अधीताः, अद्य पूर्वपदविशेषाः दृष्टाः. अन्तिमः अंशः तत्पुरुषसमासे लिङ्गज्ञानं, लिङ्गनिर्णयः कथं भवति इति. तत्र सामान्यं सूत्रमस्ति परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः इति. द्वन्द्वसमासे तत्पुरुषसमासे च परवत् लिङ्गम्, उत्तरपदवत् लिङ्गं भवति. परवत् इति अव्ययं, लिङ्गं द्वन्द्वतत्पुरुषयोः इति षष्ठी. अतिदेशसूत्रं, येन लिङ्गातिदेशः क्रियते. पूर्वपदस्य यल्लिङ्गम् अथवा उत्तरपदस्य यल्लिङ्गं तद्वदेव लिङ्गं भवति इति. एतयोः नाम द्वन्द्वसमासस्य तत्पुरुषसमासस्य च परपदस्य इव लिङ्गं स्यात्. उत्तरपदस्य यत् लिङ्गं तदेव लिङ्गं समस्तपदस्य अपि भवति. कुक्कुटमयूर्यौ इमे, मयूरी कुक्कुटौ इमौ. तत्र द्वन्द्वसमासे कुक्कुटश्च मयूरी च, कुक्कुटमयूर्यौ. तत्र मयूरी इति उत्तरपदं स्त्रीलिङ्गम्, अतः मयूर्यौ इमे, इमे इति इयम्, इमे इमाः, स्त्रीलिङ्गे द्विवचनं. कुक्कुटमयूर्यौ इत्यत्र स्त्रीलिङ्गं भवति. मयूरी च कुक्कुटश्च, मयूरी कुक्कुटौ इमौ, अयम् इमौ, बहु पुल्लिङ्गं भवति. एतत्तु द्वन्द्वसमासस्य उदाहरणं. तत्पुरुषसमासे भवति राज्ञः पुत्रः राजपुत्रः, राज्ञः पुत्री राजपुत्री, राज्ञः गृहं राजगृहं. सर्वत्रापि पूर्वपदं पुल्लिङ्गे अस्ति, किन्तु उत्तरपदस्य लिङ्गम् आश्रित्य समस्तपदस्य लिङ्गं भवति. उत्तरपदं पुल्लिङ्गे अस्ति चेत् समस्तपदमपि पुल्लिङ्गे, उत्तरपदं स्त्रियां चेत् समस्तमपि स्त्रीलिङ्गे, एवं नपुंसके. परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः इति सामान्यनियमः. अत एव रात्रान्हाः पुंसि इति विशेषः. तत्र वस्तुतः रात्रिशब्दस्य स्त्रीलिङ्गत्वात् समस्तपदस्यापि स्त्रीत्वं स्यात्, किन्तु विशिष्य उच्यते रात्र यदा समासान्तप्रत्ययः भवति तदा पुल्लिङ्गत्वं विशेषेण विधीयते. परवल्लिङ्गस्य अपवादः, तत्र एकं वार्तिकमस्ति. द्विगु प्राप्तापन्न अलं पूर्व गतिसमासेषु प्रतिषेधो वाच्यः एतेषु समासेषु परवल्लिङ्गं न भवति इति अपवादः उच्यते. द्विगुसमासः प्राप्तापन्न अग्रे उच्यते. सः समासः अलं पूर्वः समासः, यत्र अलं शब्दः पूर्वपदमस्ति तत्र गतिसमासः. एतेषु परवल्लिङ्गं न भवति. उदाहरणं दीयते. पञ्चसु कपालेषु संस्कृतः, पञ्चकपालः पुरोढाशः. तत्र कपालशब्दः नपुंसकलिङ्गे कपालम् इति, अत्र तद्धितार्थद्विगुसमासः. पञ्चसु कपालेषु संस्कृतः इति संस्कृत इति तद्धितप्रत्ययस्य अर्थः. तद्धितार्थे पञ्चन् कपाल एतयोः द्विगुसमासः भवति. अनन्तरं तद्धितप्रत्ययः, तस्य लोपः च भवति. इदानीं पञ्चकपालः इत्यस्ति, अत्र पञ्चकपालः इति पुल्लिङ्गे अस्ति. यद्यपि उत्तरपदं नपुंसकलिङ्गं, तथापि समस्तपदं पुल्लिङ्गे. किमर्थं? पुरोडाशः इत्यस्य विशेषणं. पुरोडाशः हविः इत्यर्थः. पुरोडाशशब्दः पुल्लिङ्गे, अतः पञ्चकपालः. यदि नपुंसकलिङ्गशब्दः पञ्चकपालं हविः, हविःशब्दः नपुंसके, तस्य विशेषणं भवति चेत् पञ्चकपालं हविः, नो चेत् पञ्चकपालः पुरोडाशः. अयं द्विगुसमासस्य उदाहरणम् इदम्. तद्धितार्थद्विगुः तत्र प्राप्तापन्न इत्युच्यते. तत्र विशिष्य सूत्रमस्ति. प्राप्तापन्ने च द्वितीयया इति सूत्रमस्ति. प्राप्त आपन्ने च द्वितीयया, सहसुमा समासः इत्यस्ति, तत्पुरुषसमासविधानम् अनेन सूत्रेण क्रियते. प्राप्तापन्ने च द्वितीयया समस्येते, अकारश्च अनयोः अन्तादेशः इति सूत्रार्थः. प्राप्तः जीविकां प्राप्तजीविकः. एतद् वस्तुतः द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः इत्यस्य अपवादः. तत्र किं भवति? गृहं प्राप्तः गृहप्राप्तः इति भवति. अत्र रिवर्स् अपि शक्यते इति अनेन सूत्रेण उच्यते. प्राप्त आपन्ने इति प्रथमा विभक्तौ अस्ति. प्रथमानिर्दिष्टं समास उपसर्जनम् इत्यनेन उपसर्जनत्वात् प्राप्त आपन्न एतयोः पूर्वनिपातः भवति. तत्र द्वितीया इति प्रथमा निर्दिष्टत्वात् द्वितीया विभक्त्यन्तस्य पूर्वनिपातः भवति. जीविका प्राप्तः जीविकापन्नः इति तत्र भवति. सः समासः अपि भवति. अनेन समासः क्रियते चेत् प्राप्त आपन्न एतयोः पूर्वनिपातः भवति. प्राप्तः जीविकां प्राप्तजीविकः. अत्र जीविका इति उत्तरपदं स्त्रीलिङ्गे अस्ति, किन्तु समस्तपदं पुल्लिङ्गे अस्ति. एवमेव आपन्नः जीविकाम् आपन्नजीविकः इति. अतः परवल्लिङ्गस्य अपवादः अस्मिन् समासे प्राप्तापन्ने च द्वितीयया इत्यनेन समासे कृते परवल्लिङ्गं न भवति, पूर्ववल्लिङ्गं भवति. पूर्वपदस्य यल्लिङ्गं तद्भवति. अतः प्राप्तः जीविकां प्राप्तजीविकः, प्राप्ता जीविकां प्राप्तजीविका. उत्तर पूर्वपदस्य यल्लिङ्गं तदेव लिङ्गं भवति अस्मिन् समासे. अत्र प्रक्रिया प्राप्तः जीविकां, प्राप्तसु जीविकासु इति स्थिते जीविका अम् सारी ऐ थिंक ऐ क्रिएटेड दिस प्राप्त सुजीविका अम् इति समासः. प्राप्तापन्ने च द्वितीयया इत्यनेन समासः. सुपोधातुप्रातिपदिकयोः प्राप्त जीविका. जीविका इत्यत्र गोस्त्रियोरुपसर्जनस्य इत्यनेन ह्रस्वः. यथा अतिमालः इत्यत्र एकविभक्ति च अपूर्वनिपाते इत्यनेन उपसर्जनसंज्ञा भवति. तद्वशात् गोस्त्रियोरुपसर्जनस्य इत्यनेन ह्रस्वः प्राप्तजीविका. अस्य सुप्रत्यये पूर्ववत् पुल्लिङ्गे रुत्वविसर्गौ भवतः प्राप्तजीविकः इति रूपं भवति. प्राप्ता जीविकाम् इति स्थिते तु प्राप्तजीविका पूर्वपदवल्लिङ्गम्. इदानीं प्राप्ता इत्यस्य स्त्रीत्वात् समस्तपदमपि स्त्रीलिङ्गे भवति. प्राप्ता सु जीविका सु समासः सुब्लुक्. अत्रापि जीविका अम् न तु सु. प्राप्ता जीविका इत्यस्ति. अत्र विशेषः सूत्रार्थं पश्यन्ति चेत् प्राप्तापन्ने च द्वितीयया इति तत्र उच्यते. समस्येते प्राप्त आपन्नशब्दयोः द्वितीयान्तेन समासः भवति. अकारश्च अनयोः अन्तादेशः. प्राप्ता जीविका इत्यत्र ह्रस्व अकारः आदेशः भवति. किमर्थम्? अत्र यदा स्त्रीलिङ्गे क्रियते प्राप्ता जीविका इत्यस्ति, अत्र प्राप्ता इत्यस्य स्थाने प्राप्त इति भवति. अनेनैव सूत्रेण प्राप्तापन्ने च द्वितीयया इत्यनेन गोत्रियोरुपसर्जनस्य इत्यनेन ह्रस्वः भवति प्राप्तजीविक. इदानीं समस्तपदस्य स्त्रीत्वमस्ति. पूर्वपदस्य यल्लिङ्गं तदेव भवति इत्यतः स्त्रीलिङ्गत्वे पुनः अजाद्यतष्टाप् इत्यनेन टाप् प्रत्ययः क्रियते. प्राप्तजीविक आ अकस्थवर्णे दीर्घः इत्यनेन सवर्णदीर्घे प्राप्तजीविका. पुनः सु औजस् इत्यनेन सुप्रत्ययः. हल्ज्ञाभ्यो इत्यादिना सुलोपः. यद्यपि प्राप्तजीविका इति रूपम् अत्रैव सिद्धं, तथापि एतत् पदं न अत्र उप स्थगयितुं न शक्यते. इफ् युर् रैटिङ्ग् प्रक्रिया यु केन् नाट् स्टाप् हियर्. यद्यपि इष्टं रूपं लब्धं प्राप्तजीविका इति, किन्तु अत्र स्थगयितुं न शक्यते बिकास् आल् द अदर् सूत्रास् विल् अप्लै. प्राप्तजीविका तत्र जीविका इत्यस्य उपसर्जनत्वात् ह्रस्वः भवत्येव. पुनः स्त्रीत्वनिमित्तकं टाप् प्रत्ययः भवति. अनन्तरं सुऔजस् इति सुप्रत्ययः भवति. तद्विना पदं न भवति. सुबन्तत्वाभावात् पदत्वं न भवति. अतः एतत् सर्वमपि कृत्वा अन्ते प्राप्तजीविका इति प्रथमान्तं पदं भवति. एवं द्विगु प्राप्तापन्न अलं पूर्व अलङ्कुमार्यै अलङ्कुमारिः इति पर्यादीनां पर्यादयः ग्लानाद्यर्थे चतुर्थ्या इति वार्तिकेन अलम् इत्यस्य चतुर्थ्यन्तेन सह समासः भवति. अलं कुमार्यै अलङ्कुमारिः इति. अत्र वस्तुतः समासविधायकं सूत्रं नास्ति. अनेन वार्तिकेन अलं पूर्वपदे परवल्लिङ्गं न भवति इति उक्तत्वात् अत एव ज्ञापकात् इत्युक्ते एतद्वार्तिकमेव ज्ञापकं किम् इति अयं समासः भवति इत्यत्र इदं वार्तिकमेव ज्ञापकं. समासः भवति समासे कुमारी इति स्त्रीलिङ्गं, किन्तु सम्पूर्णं पदं पुल्लिङ्गे अस्ति अलङ्कुमारिः इति. अतः परवल्लिङ्गं न भवति. द्विगु प्राप्तापन्न अलं पूर्व गतिसमासः. गतिसमासे अपि पूर्वमुक्तं गतिसमासः पूर्वपदार्थप्रधानः. निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बिः. तत्र कौशाम्बी इति स्त्रीलिङ्गं, किन्तु प्राधान्यं निर्गतः निष्क्रान्तः इति पूर्वपदार्थस्य. अतः पूर्वपदस्य यल्लिङ्गं तदेव लिङ्गं भवति निष्कौशाम्बिः. एवञ्च अतिक्रान्तः मालाम् अतिमालः. अतिक्रान्ता मालाम्
అతిమాలా అతిక్రాంతం మాలాం అతిమాలం. సో అయం గతి సమాసః త్రిలింగకః ఇత్యుక్తే విశేష్య పదస్య యల్లింగం తల్లింగం ఆశ్రిత్య లింగం లింగత్రయే అపి భవతి. సామాన్య నియమః పరవల్లింగం ద్వంద్వ తత్పురుషయోః ఇతి తస్య అపవాదాః సంతి ద్విగు ప్రాప్తాపన్న అలం పూర్వ గతి సమాసేషు పరవల్లింగం న భవతి. తథైవ రాత్రి శబ్దస్య విశిష్య పుల్లింగముక్తం అతః తత్ర పుల్లింగం భవతి. అన్యదేకం సూత్రమస్తి అర్ధర్చాః పుంసి చ. అర్ధర్చ ఇతి కశ్చిద్ గణః. అర్ధర్చాః ఇతి ప్రథమా బహువచనం, పుంసి సప్తమి, చ ఇతి అవ్యయం. లింగ విధానం క్రియతే అర్ధర్చాదయః శబ్దాః పుంసి క్లీబే చ స్యుః. క్లీబే ఇతి అనువర్తతే. అతః అర్ధర్చాదిగణే ఏ శబ్దాః పఠితాః తే శబ్దాః పుల్లింగే నపుంసకలింగే ఉభయోః లింగయోః భవంతి ఇత్యర్థః. అర్ధర్చః అర్ధర్చం ఇతి ఉదాహరణం. అర్ధర్చః ఇత్యత్ర అర్ధం రుచః ఇతి సమాసః. అర్ధం రుచః ఇతి సమాసః. కః సమాసః? అర్ధం నపుంసకం ఇత్యనేన ఏకదేశి సమాసః. తత్ర రిచ్ ఇతి ప్రాతిపదికం, తస్య ఋక్పూరబ్ధూః పథామానచ్చ ఇత్యనేన అ ఇతి సమాసాంత ప్రత్యయః భవతి. అతః అర్ధర్చ ఇతి అకారాంతం భవతి. అస్య వస్తుతః ఋక్ శబ్దః స్త్రీలింగే. యది పరవలింగం క్రియతే తర్హి స్త్రీలింగం భవేత్. కింతు అస్మిన్ గణే పఠితః ఇత్యతః అర్ధర్చః అర్ధర్చం ఇతి పుల్లింగే నపుంసకలింగే ఉభయథాపి రూపం భవతి. అర్ధం రుచః పరవల్లింగే స్త్రీత్వం స్యాత్, తం బాధిత్వా అనేన పుంస్త్వం క్లీబత్వం చ విధీయతే. వస్తుతః అర్ధర్చాదిగణే కేవలం సమాసాః ఇతి న, బహవః శబ్దాః సంతి పుం నపుంసకాః, ఏషాం పుల్లింగే నపుంసకలింగే ఉభయత్రాపి ప్రయోగః భవతి. ధ్వజ తీర్థ శరీర మండప యూప దేహ అంకుశ పాత్ర సూత్రాదయః. బహూని పదాని సంతి, అస్మాకం బహుధా క్లేశః భవతి. ధ్వజః వా ధ్వజం వా, మండపః వా మండపం వా, పాత్రః వా పాత్రం వా, ఏతే సర్వేపి శబ్దాః పుం స్త్రీలింగయోః ఉభయథాపి భవంతి. క్షమ్యతాం, పుం నపుంసకలింగయోః ఉభయోః భవంతి. ఏషః గణః ఆకృతిగణః, అతః తత్సదృశాః శబ్దాః అపి అత్ర యోజయితుం శక్యంతే. అన్యదేకః అన్యః కశ్చిన్ నియమః అస్తి వ్యాకరణే సామాన్యే నపుంసకం. యత్ర లింగవిశేషః న జ్ఞాయతే తత్ర సామాన్యతః నపుంసకలింగస్య ప్రయోగః భవతి. మృదు పచతి, పచతి ఇతి క్రియా, క్రియాయాః విశేషణం. యది ద్రవ్యస్య విశేషణం భవతి మృదుః, కిమపి వక్తుం శక్యతే, మృదుః పురుషః అథవా మృదు కుసుమం, మృద్వీ నారీ ఇతి మృదు ఇతి స్త్రీలింగే అపి విశేషణం భవతి. యదా విశేష్యస్య లింగం భవతి తదా తదాధారేణ విశేషణస్య లింగం నిర్ణేతుం శక్యతే. యదా తు విశేష్యస్య లింగం న భవతి, యథా పచతి ఇత్యత్ర క్రియా, క్రియాయాః లింగం నాస్తి. సః పచతి సా పచతి తత్ పచతి, తత్ర లింగభేదః నాస్తి. తర్హి తస్య విశేషణం, క్రియాయాః విశేషణం కస్మిన్ లింగే భవతి ఇతి చేత్ సామాన్యే నపుంసకం. సామాన్యతః యది లింగ నిర్ణాయకం కిమపి నాస్తి తదా సామాన్యతః నపుంసకలింగే భవతి. మృదు పచతి ప్రాతః కమనీయం. ప్రాతః ఇతి అవ్యయం, ప్రాతఃకాలః. తత్ర ప్రాతః ఇత్యస్య లింగభేదః నాస్తి. తర్హి తస్య విశేషణం కస్మిన్ లింగే భవేత్ ఇతి చే సామాన్యే నపుంసకం. కమనీయం ప్రాతః, అత్రాపి సమాసస్య ఇతి నాస్తి. సామాన్యతః యది లింగం నిర్ణేతుం कोऽपि अंशः न सहकरोति तदा नपुंसकलिङ्गस्य प्रयोगः क्रियते. तत्पुरुषसमासे पूर्वपदविशेषाः दृष्टाः. आन् महतः समानाधिकरणजातीययोः इत्यनेन महत् शब्दस्य आत्वं विधीयते. द्व्यष्टनसङ्ख्यायाम् अबहुव्रीह्यशीत्योः इत्यनेनापि आत्वं विधीयते. त्रेस्त्रयः त्रि शब्दस्य सङ्ख्यायाम् उत्तरपदे त्रयस् इति आदेशः क्रियते. तत्र त्रिंशत् पर्यन्तं नित्यम् आदेशः. विभाषा चत्वारिंशत् प्रभृतौ इति चत्वारिंशतः आरभ्य शतपर्यन्तं विकल्पेन आदेशः. शतादूर्ध्वं न भवति. तत्पुरुषे लिङ्गनिर्णयार्थं सामान्यं सूत्रमस्ति परवल्लिङ्गम्. उत्तरपदस्य यल्लिङ्गं तदेव लिङ्गं भवति द्वन्द्वतत्पुरुषयोः. तत्र केचन अपवादाः सन्ति. द्विगु प्राप्तापन्न अलं पूर्व गतिसमासेषु परवल्लिङ्गस्य निषेधः. प्राप्तापन्ने च द्वितीयया इत्यनेन प्राप्त आपन्नयोः द्वितीयान्तेन समासः विधीयते. तत्र परवल्लिङ्गं न भवति. अर्धर्चाः पुंसि च. अर्धर्चादिगणे ये शब्दाः पठिताः ते पुल्लिङ्गे नपुंसकलिङ्गे उभयोः लिङ्गयोः भवन्ति. तत्र केचन समासाः सन्ति, केचन असमस्तपदानि अपि सन्ति. ते सर्वे पुन्नपुंसकाः भवन्ति. केऽपि प्रश्नाः सन्ति वा? अनेन लघुसिद्धान्तकौमुद्यां तत्पुरुषसमासप्रकरणं समाप्तम्. एतावत्पर्यन्तमपि परीक्षार्थं भवति. भवतां सेमिस्टर् परीक्षार्थं केवलसमासः, अव्ययीभावसमासः, तत्पुरुषः पूर्णः भवति. एतादृशगणाः कुत्र भवन्ति? तत्र गणपाठः इत्येव अस्ति. तत्र सिद्धान्तकौमुद्याः पुस्तकम् अस्ति चेत् अन्ते गणपाठः इति दीयते. तत्र गणपाठे गणे विद्यमानानां सर्वेषां गण शब्दानाम् आवलिः भवति. अनन्तरं परीक्षासमाप्तेरनन्तरम् इतोपि प्रकरणद्वयमस्ति. बहुव्रीहिसमासः, द्वन्द्वसमासः. द्वन्द्वसमासप्रकरणम् अत्यन्तं लघु. बहुव्रीहिसमासे केचन अंशाः सन्ति. परीक्षानन्तरं तानि प्रकरणानि पश्यामः. प्रश्नाः: महच्छब्दस्य आत्वं कदा भवति, केन सूत्रेण भवति, सोदाहरणं विवृणुत. अष्टन् शब्दस्य दशशब्देन समासे किं रूपं भवति, सूत्रेण सहितं साधयत. तत्पुरुषे लिङ्गनिर्णयः कथं क्रियते इति ससूत्रं टिप्पणीं लिखत. अनन्तरं महासेवा इति शब्दः अस्ति, महत् सेवा इत्यपि शब्दः अस्ति, अनयोः कः भेदः? महासेवा, महत् सेवा, कः भेदः इति किञ्चित् विचारं कुरुत. केचन समासाः दीयन्ते, विग्रहं प्रदर्श्य तेषां प्रक्रिया अपि प्रदर्शनीया. प्रायः दशशब्दाः सन्ति. येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं, भाष्यकारं पतञ्जलिं, पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्. अस्तु, तर्हि पश्यामः अग्रे.